अग्नेरजसुपथाराजे अस्मान् निश्वानि देव भजुराणि विद्वान् योद्धा अस्मद्योगुरानमेनो भूयिष्ठाम् तेन वा मुक्तिम् विधेम अग्ने त्वम् वारजानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वाः भूश्च पृथ्वी बाहुला न उर्वी भवा दोकायतन जायसंयोः अग्ने त्वमस्मद्भ्यूयोध्यमी वानग्नित्रा अभ्यमन्तदृष्टीः पुनरस्मभ्यम् सुविदाय देवक्षाम् विश्वेभिरमृतेभिर्यजत्र वायुलो अग्ने वायुभिरजश्रीरुतप्रिये सदनासु सुक्वान् माले भयम् जरिदारम् यविष्ठनूनम् वि जन्मा परम् सहस्वः मानो अग्नेव सृजो अघाया विश्ववेः ऋपवेः दुच्छुनायै मा धत्वते दशते मा दते नो मारीषते सहसा वन्परादाः विघत्वा वाम् कृतजातयम् सद्गृणानो अग्ने तन्वे एव रोधम् विश्वाद्रिरिक्षो रुदवारिनित्सोरभिकृतामसिगतेव विष्पद् त्वन्ताम् अग्नमुभयान्वि विद्वान्येषि प्रभित्वे मनुषो यजत्र अभिभित्वे मनवेदास्यो भोर्मर्मृजेऽन्यभुषिघ्नाग्रः अभोजामनिवचनान्यस्मिन्मानस्य दूरस्य हसाने अग्नौ वयम् सहस्रमृषेभिः सरेम विद्यामेषम् वृजनम् धीरताम्।